छठ्यो प्रदीपिकायां द्वितीयोपदेशः अधासने दृढे योगी वशी हितमिताशनः गुरुपदिष्टमार्गेण प्राणायामान् समभ्यसेत्। चले वाते चलं चित्तं निश्चले निश्चलं भवेत्। योगी स्थाणुत्वं आप्नोति ततो वायुं निरोधयेत्। यावद् वायुः स्थितो देहे तावज्जीवनं मुच्यते। मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत्। मलाकुलाशु नाडीषु मारुतो नैव मध्यगः। कथं स्यादुन्मनी भावः कार्यसिद्धिः कथं भवेत्। शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलं तदैव जायते योगी प्राणसङ्ग्रहणे क्षमः। प्राणायामं ततः कुर्यान् नित्यं सात्विकया धिया। यथा सुषुम्ना नाडीस्था मलाः शुद्धिं प्रयान्ति च। बद्ध पद्मासनो योगी प्राणं चन्द्रेण पूरयेत्। धारयित्वा यथा शक्ति भूयः सूर्येण रेचयेत्। प्राणं सूर्येण चाकृष्य पूरयेत् उदरं शनैः। विधिवत् कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत्। येन त्यजेत् तेन पीत्वा धारयेत् अतिरोधतः। रेचयेच्च ततो अन्येन शनैरेव न वेगतः। प्राणं चेदिड्या पिबेत् नियमितं भूयो अनन्यया रेचयेत्। पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वात्म त्यजेत् वामया। सूर्या चन्द्रमसूरनेन विधिनाभ्यासं सदा तन्वताम्। शुद्धा नाडीगडा भवन्ति यामिनां मास्त्रयादूर्ध्वतः। प्रातर्मध्याह्ने सायं अर्धरात्रे च कुम्भकान् शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत्। कनीयसी भवेत् स्वेद कम्पो भवति मध्यमे। उत्तमे स्थानमाप्नोति ततो वायुं निबन्धयेत्। जलेन श्रं जातेन गर्गात्रमादनम् आचरेत्। दृढता लघुता चैव तेन गात्रस्य जायते। अभ्यासकाले प्रथमे शस्तं क्षीराज्य भोजनम्। ततो अभ्यसे दृढीभूते न तादृं नियमग्रह। यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः। तथैव सेवितो वायुरन्यथा हन्ति साधकम्। प्राणायामादियुक्तेन सर्वरोगक्षयो भवेत्। अयुक्ताभ्यासयोगेन सर्वरोगसमुद्भवः। हिक्काश्वासश्च कासश्च शिरः कर्णाक्षी वेदनाः। भवन्ति विविधा रोगाः पवनस्य प्रकोपतः। युक्तं युक्तं त्यजेद् वायुं युक्तं युक्तं च पूरयेत्। युक्तं युक्तं च बध्नीयात् एवं सिद्धिम् अवाप्नुयात्। यदा तु नाडी शुद्धे स्यात् तथा चिह्नानि बाह्यता। कायस्य कृशता कान्तेस्तदा जायेत् निश्चितम्। यथेष्ट धारणं वायोर अनलस्य प्रदीपनम् नाधा विव्यक्त्यारोग्यं जायते नाडी शोधनात् मेदश्लेष्मादिकः पूर्वं षट्कर्माणि समाचरेत् अन्यस्तु नाचरेत् तानि दोषाणां संभावतः धौतिर्वस्तिस्तथा नेतिस्त्राटकं मौलिकं तथा कपालभातिश्चैतानि षट्कर्माणि प्रचक्षते कर्मषट्कमिदं गोप्यं घटशोधन कारकं विचित्रगुणसन्धायि पूज्यते योगी पुंगवैः तत्र धौतिः चतुरङ्गुलविस्तारं हस्तपञ्चदशायतं गुरूपदिष्टमार्गेण सिक्तं वस्त्रं सनैर्गृशेत् पुनः प्रत्यहरेच्चैतद् उदितं धौती कर्म तत् काशश्वासप्लीहकुष्ठं कफरोगांश्च विंशतिः धौति कर्म प्रभावेन प्रयान्त्येव न संशयः नाभिदग्नजले पायौ न्यस्तनालोत्कटासनः आधारा कुञ्चनं कुर्यात् छालनं वस्ते कर्म तत् गुल्मप्लीहोदरं चापि वातपेत्त कफोद्भवाः बस्तिकर्ण प्रभावेन क्षीयन्ते सकलामयः धात्विन्द्रियान्तः करण प्रसादं दद्याच्कान्तिं दहन् प्रदीप्तम् अशेष दोषोपचयं निहन्यात् दभ्यस्यमानं जलबस्ति कर्म अथ नीतिः सूत्रवितस्ति सुस्निग्धं नासा नाले प्रवेशयेत् मुखा निर्गम्ये चैषा नीतिः सिद्धैर्निगद्यते कपालशोधनी चैव दिव्यदृष्टी प्रदायिनी जातृर्ध्वजातरोगौघं नेतिराशु निहन्ति च अथ त्राटकम् निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं समाहिताः अश्रुसंपातपर्यन्तम् आचार्यैस्त्राटकं स्मृतम् मोचनं नेत्ररोगाणां तन्द्रादीनां कपाटकं यत्नतस्त्राटकं गोप्यं यथा हाटपेटकम् अथ नौलिः अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः नतांशु भ्रामये देशा नौलिः सिद्धैः प्रचक्षते मन्दाग्निसन्दीपन्पाचनादि सन्धापिकानन्दकरि सदैव अशेषदोषामयशोषिणी च हठक्रियामौलीर्यं च नौलिः अथ कपालभातिः भस्त्रावल्लोहकारस्य रेचपूरौ संस्रभणौ कपालभातेर्स्वेख्याता कफदोषविशेषणी षट्कर्मनिर्गतस्थौल्यक् कफदोषमलादिकः प्राणायामं ततः कुर्याद् अनायसेन सिद्ध्यति प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति आचार्याणां तु केषाञ्चिद् अन्त्यकर्म न सम्मतम् अथ गजकर्णी उदरगत्पदार्थम् उद्वमिति पवनम अपानम मुदीर कंठ नाले क्रम परिचय वश्य नाडी चक्र गज करणी ती निगद्यते हट गई है। ब्रह्मादेव अपि त्रिदशाः पवनाभ्यास तत्पराः अभूवन्नत कभा तस्मात् पवनम अभ्यसे यावत् बद्धो मरो देहे यावत् चित्तं निराकुलं यावत् दृष्टिर्भूर्मध्ये तावत् काल भयं कुतः विधिवत् प्राण संयमैर् नाडी चक्रे विशोधिते सुषुम्ना वदनं भेत्वा सुखाद् विशति मारुतः। अथ मनोन्मने मारुते मध्य संचारे मनस्थैर्यं प्रजायते यो मनसुस्थरी भावः सैवावस्था मनोन्मने। तत्सिद्धये विधानाज्ञाश्चित्रान् कुर्वन्ति कुम्भकान् विचित्र कुम्भकाभ्यासात् विचित्रां सिद्धिम् माप्नुयात्। अथ कुम्भक भेदाः सूर्य भेद नमो जाई शीतकारी शीतली तथा भस्त्रिका भ्रामरी मूर्छा प्लवनीत्यष्ट कुम्भकाः। पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिदः कुम्भकान्तेरे च कादौ कर्तव्यस्तु डीयानकः। अधस्त्यात् कुञ्चने नाशु कण्ठसङ्कोचने कृते मध्ये पश्चिमातानेन स्यात् प्राणो ब्रह्म नाडिगः। अपानम् ऊर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् योगी जराविमुक्तः सन् षोडशाब्दवयो भवेत्। अथ सूर्यभेदनम् आसने सुखदे योगी बद्ध्वा चैवासनं ततः दक्षिणाड्या समाकृष्य बहिस्थं पवनं शनैः आकीशादनक्राग्राच्च निरोधावधि कुम्भयेत् ततः शनैः सव्यनाड्या रेचयेत् पवनं शनैः। कपालशोधनं वातदोषग्नं क्रमिदोषहृत पुनः पुनरिदं कार्यं सूर्यभेदनम् उत्तमम्। अथोज्जायि मुखं संयम्य नाडीभ्याम् आकृष्य पवनं शनैः यथा लगति कण्ठात्तु हृदयावधि सस्वनम् पूर्वत् कुम्भयेत् प्राणं रेचयेतिड्या ततः श्लेष्मदोषहरं कण्ठे देहानल्विवर्धनम् नाडिजालोदराधातु गतदोष्विनाशनम् गच्छता तिष्ठता कार्यम् उज्जायाख्यं तु कुम्भकम्। अथ शीतकरी शीतकाम कुर्यात् तथा वक्त्रे घ्राणे नयी विजृम्भिकाम् एवमभ्यास योगेन कामदेवो द्वितीयकः। योगिनी चक्र सामान्यः सृष्टि संहार कारकः न क्षुधा न तृषा नेद्रा नैवालस्यं प्रजायते। भवेत् सत्त्वं च देहस्य सर्वोपद्रव वर्जितः अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले। अथ शीतली जिव्या वायुमाकृष्य पूर्ववत् कुंभ साधनम् शनकैर्घ्राणरन्ध्राभ्याम् रेचयेत् पवनम् सुधी। गुल्म प्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधातृषां विषाणि शीतलीनां कुम्भिकेयं निहन्तिः। अथ भस्त्रिका ऊर्वूरुपरि संस्थाप्य शुभे पादतले उभे पद्मासनं भवेदेतत् सर्वपाप्रणाशनम्। सम्यक् पद्मासनं बद्ध्वा समग्रीवोदरं सुधीः मुखं संयम्य यत्नेन घ्राणं घ्राणेन रेचयेत्। यथा लगतिरत्कण्ठे कपालावधि सस्वनम् वेगेन पूरयेच्चापि हृत्पद्मावधिमारुतम् पुनर्विरेचयेत् तद्वत् पूरयेच्च पुनः पुनः। यथैव लौहकारेण भस्त्रावेगेन चाल्यते तथैव स्वशरीरस्थं चालयेत् पवनं धिया। यथाश्रमो भवेत् देहे तदा सूर्येण पूरयेत्। यथोदरं भवेत् पूर्णम् अनिलेन तथा लघु धारयेन् नसिकां मध्य तर्जनीभ्यां विना दृढम्। विधिवत् कुम्भकं कृत्वा रेचयेतिडयानिलम् वातपित्तश्लेष्महरं शरीराग्निविवर्धनम्। कुण्डलीबोधकं क्षिप्रं पवनं सुखदं हितम् ब्रह्मनाडीमुखे संस्थ ख्वाद्यार्गलनाशनम्। सम्यक् गात्र सम्मोद्भूत तन् ग्रन्थित्रय विभेदकम् विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम्। अथ भ्रामरी वेगाद्घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दं मन्दं योगीन्द्राणामेवाभ्यासयोगात् चित्ते जाता काचिदानन्दलीला। अथ मूर्छा पूरकान्ते गाढतरं बद्ध्वा जालन्धरसनैः रेचयेन्मूर्छनाख्येयं मनोमूर्छा सुखप्रदा। अथ प्लाविनी अन्तः प्रवर्तितोदारं मारुता पूरितोदरः पयस्य गाधे अपि सुखात् प्लवते पद्म पत्रवे। प्राणायामस्त्रिधा प्रोक्तो रेच पूर कुम्भकैः सहिता केवलश्चेति कुम्भको द्विवेधो मतः। यावत् केवल सिद्धिः स्यात् सहितं तावत् अभ्यसेत् रेचकं पूरकं मुक्त्वा सुखं यद्वायु धारणम्। प्राणायामो व्यायामेत्युक्तः सा वै केवल कुम्भकः। कुम्भके केवले सिद्धे रेच पूरकवर्जिते न तस्य दुर्लभं किञ्चित् तिषु लोकेषु विद्यते। शक्तः केवल कुम्भेन यथेष्टं वायुधारणात् राजयोगं पदं चापि लभते नात्र संशयः। कुंभकात् कुंडली बोधः कुंडली बोधतो भवेत् अनर्गला सुषुम्ना च हट सिद्धेश्च जायते हटं विना राजयोगो राजयोगं विना हठः न सिद्ध्यति ततो युग्मं अनिष्पत्तेः समभ्यसे कुंभक प्राणरोधान्ते कुर्याच्चित्तं निराश्रयम् एवम् अभ्यासयोगेन राजयोगपदं व्रजेत् वपुः कृशत्वं वदने प्रसन्नता नादिस्फुटत्वं नयने सुनिर्मले अरोगता बिन्दुजयो अग्नि दीपनं नाडिशुद्धिर्हठयोगलक्षणम् इति हठयोगप्रदीपिकायां द्वितीयोपदेशः।